एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली प्रमाणानाम् तथ्यानाम् च आधारेण सर्वासामपि घटनानाम् अनुसन्धानम् विधातुम् प्रहरिणः निर्दिशति। काष्ठमण्डपस्य नेपाल प्रहरी क्लब परिसरे नवनिर्मितम् डब्ल्यू प्याभिलियन नामकं भवनम् उद्घाटयन् प्रधानमन्त्री ओली कथं विधेपि प्रभावे परामर्शने च निपतनेन विनैव प्रमाणानां तथ्यानां च आधारेण न्यायसंगतम् अनुसन्धानं विधातुं नेपाल प्रहरिणः निरदिशत। प्रधानमन्त्री ओली देश जनतयोः हितं केन्द्रे निधाय प्रहरिणा कार्यं सम्पादनीयम् इत्यत्र बलं प्रादात्। प्रधानमन्त्री ओली देशे शान्ति सुव्यवस्थां संस्थाप्य राष्ट्रिय हितम् एकताञ्च विचार्य अतिरिक्त प्रभावकारी रूपेण कार्यं कर्तुं प्रहरिणः निरदिशत। कार्यक्रमे गृहमन्त्री रमेश लेखकः स्वतः साधनानि उपयुज्य विधौ सुधारं कृत्वा च नेपाल प्रहरिणं सशस्त्र प्रहरिणं च समयानुकूलं विधातुं सर्वकारः क्रियाशीलोऽस्तीति अगदत। गृहमन्त्री लेखकः संघीय संसदि विचाराधीनं नागरिकता सम्बद्धं विधेयकं शीघ्रमेव पारितीकरिष्यते, वर्तमानाधिवेशने एव अध्यागमन सम्बद्धाधिनियम संशोधनस्य प्रस्तावः, निर्वाचन सम्बद्धाधिनियमः, भूमि प्राप्ति सम्बद्ध विधेय संशोधनस्य कार्यं च अग्रे वर्धिष्यन्ते चेति विश्वासं व्यक्तवान्। संचार सूचना प्रविधि मन्त्रालयेन देशे कृत्रिम बौद्धिकतायाः व्यवस्थित विकासाय प्रयोगाय च प्रोत्साहनस्य उद्देश्येन एतद् विक्रम वर्षीयायाः राष्ट्रिय कृत्रिम बौद्धिकता नीतेः प्रारूपं निर्मितमस्ति। प्रारूपनीतौ मन्त्रालयेन परामर्शनम् याचितम् वर्तते। प्रारूपस्य मुख्यम् लक्ष्यम् नवप्रवर्तनस्य उद्यमशीलतायाश्च प्रवर्धनम्, विद्यमान संरचनायाः सबलीकरणम्, क्षेत्रगत समन्वयस्य माध्यमेन सम्पूर्ण गार्ह्यस्थोत्पादने सूचना प्रविधेः क्षेत्रस्य योगदानस्य प्रवर्धनम् च सन्तीति प्रारूपे उल्लिखितम् वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति थारूस जातेः कला शिल्प संस्कृतीनां प्रवर्धनं विधेयम्। अन्तर प्रदेश स्तरीयं सांस्कृतिक सम्मेलनं मटावा बलघर भलमन्साधिवेशनं च पूर्वेद्युः उद्घाटयन् सभापतिः देउवा थारू समुदायः कला शिल्प संस्कृतिषु सम्पन्नः सन्नपि तासाम् आपणीकरणस्य प्रवर्धनस्य च अभावेन युव सन्ततो प्राप्ताः न सन्तीति उदैरयत। सभापतिः देउवा थारू समुदायस्य कृते आरक्षणस्य आवश्यकता अस्तीति अचर्चयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः आत्मनिर्भर अर्थतन्त्रस्य विकासाय कृष्युत्पादनस्य वर्धनेन सहैव कृषौ आधृतायाः औद्योगिकीकरणस्य नीति अवलम्बनीयेति बलं ददाति। अखिल नेपाल कृषक क्रान्तिकारी महासंघस्य केन्द्रीय समितेः ह्य आयोजिते तृतीय पूर्णोपवेशे अध्यक्षः प्रचण्डः स्थानीय स्तरादेव कृष्युत्पादने औद्योगिकीकरणस्य मार्ग अवलम्बनीयः इति बलं दत्तवान्। पेयजल मन्त्रालये ह्य अग्निदायेन आसन्न 50 लक्षाणां रूप्यकाणां क्षतिः सम्भूतास्ति। पेयजल मन्त्रिणः प्रदीप यादवस्य कार्यकक्षे दूरापन्ने अग्निदाहे टेलिभिजन उपकरणादि सहिताः सामग्र्यः दग्ध्वा विनष्टाः वर्तन्ते। अग्निदायेन मन्त्रिणः कार्यकक्षे 40-50 लक्षाणां रूप्यकाणां क्षतिः सम्भूतास्तीति मन्त्रालयस्य सहसचिवः रमाकान्त दुवाडी अज्ञापयत। अग्निदाहस्य कारणं ज्ञातं नास्ति, अनुसन्धानं विधीयमानं वर्तते इति प्रेरणा ज्ञापितम् अस्ति। पेयजल मन्त्री प्रदीप यादवः ह्यः पेयजल मन्त्रालये दूरापन्नेन अग्निदाहेन मन्त्रालयस्य महत्वपूर्णानि कान्यपि प्रपत्राणि नष्टानि न सन्तीति सूचितवान् वर्तते। मध्य प्रदेशस्य मुख्यमन्त्रिणा सतीश कुमार सिंहेन जनकपुर धाम्नः पिराडी चतुष्पथ स्थाने अवैध रूपेण सञ्चाल्यमानं मुस्कान चिकित्सालयं पिधापयितुं निर्दिष्टमस्ति। मुख्यमन्त्री सिम्हा अवैध रूपेण सञ्चाल्यमाने मुस्कान चिकित्सालय रोगिणाम उपचारे गभीरेण असावधानता अवलम्बितेति सूचनायाः सार्वजनिक भवनानन्तरं परह्य रात्रौ चिकित्सालयस्य अनुगमनं विधाय चिकित्सालय उपचाररतानां रोगिणाम् अन्यत्र चिकित्सालयेषु स्थानान्तरणाय निरदिशत। मुख्यमन्त्री सिम्हा विधेः प्रक्रियायाः अनुसारेण सम्बद्ध निकायात् अनुमतिं गृहीत्वा चिकित्सालयः सञ्चालितो नास्तीति प्राप्तम् इत्यतः उपचाररतानां रोगिणां तत्कालं व्यवस्थित रूपेण अभिलेखं निर्माय अन्यत्र चिकित्सालय प्रेषणाय निरदिशत। काष्ठमण्डप महानगरपालिकया अवकरस्य वर्गीकरणं विधाय व्यवस्थापनाय षट् क्षेत्राणि निर्धारितानि वर्तन्ते। अवकर व्यवस्थापनस्य कार्यम् अतिरिक्तं सहजं प्रभावकारी च विधातुं नूतन व्यवस्था विधीयमाना स्थिति काष्ठमण्डप महानगरपालिकायाः वातावरण विभागेन ज्ञापितं वर्तते। वातावरण विभागस्य प्रमुखस्य सरिता राई इत्यस्याः अनुसारेण षट्सु एव क्षेत्रेषु अवकरस्य वर्गीकरणं कृत्वा एतेभ्य स्थानेभ्य संकलित अवकर अन्तिम व्यवस्थापनाय वञ्चरी डाँडा वर्तिन अवकर व्यवस्थापन वर्तिनी क्षेत्रे प्रापयिष्यते। त्रिमूर्ति निकेतनेन अष्टादश त्रिमूर्ति दिवसस्य नाट्य सम्राज बालकृष्ण सम इत्यस्य त्रयोविंशत्यधिक शततम्याः जन्मजयन्त्याः अवसरे त्रयोजनाः त्रिमूर्ति निकेतनस्य विविध विधानां गत विक्रमवर्षीयैः पुरस्कारैः सम्मानिताः वर्तन्ते। निकेतनेन रामबहादुर सुवेदी लेखनाथ काव्य पुरस्कारेण, प्राध्यापक डाक्टर सावित्री कक्षपति बालकृष्ण सम पुरस्कारेण, प्राध्यापक डाक्टर बेन्जु शर्मा देवकोटा काव्य पुरस्कारेण च सम्मानिताः वर्तन्ते। ताम्रपत्रेण सह त्रयाणामेव पुरस्काराणां वित्तराशि प्रतिजनं लक्षरूप्यकाणि वर्तन्ते इति समाचारः।